एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। नेपाली कांग्रेस दलेन विभिन्न कारण दलम प्रति निष्क्रिय विमुखा च जना दलम प्रत्यागन्तुम् अनुरुद्धा सन्ति। दल सभापते गगन कुमार थापा विधस्य अध्यक्षतायां ह्य उपवेशेन केन्द्रीय कार्य समिते उपवेशेन विभिन्न कारण दलम त्यक्तवन्तो जना पुनः प्रत्यागन्तुम् अनुरुद्धा वर्तन्ते। उपवेशेन नेपाली कांग्रेस दलस्य द्वितीय विशेष महाधिवेशनस्य निर्णयेभ्य संविधानस्य विधे दलस्य विधानस्य च अनुसारेण मान्यतां प्रदाय विहितम् अद्यावधिकं प्रति निर्वाचन आयोगाय आभारः व्यक्तोऽस्ति। एवमेव उपवेशेन एकतायां सद्भावे सहकारे च बलं प्रदाय आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणे निर्वाचने सशक्तरूपेण सहभागितायै आह्वानं विहितमस्तीति उपवेशस्य अनन्तरं दलस्य प्रवक्ता देवराज चालिसी असूचयत्। उपवेशेन दलस्य निवर्तमानेन सभापतिना शेरबहादुर देउवा विधेन सहितेभ्यो नेतृभ्यः दलस्य नेतृत्वं विधाय दीर्घकालं यावत् दलाय प्रदत्तस्य योगदानस्य कृते सम्मानं विधाय धन्यवादः अर्पितः सन्ति। उपवेशेन भविष्यति केनापि अन्येन दलेन सह अप्राकृतिकं गठबन्धनं सत्ता केन्द्रिता संविदा च न विधास्यते इति प्रतिबद्धता प्रकटिता अस्तीति दलस्य प्रवक्ता चालिसे असूचयत्। अत्रान्तरे निर्वाचन आयोगस्य निर्णयस्य विरुद्धे नेपाली कांग्रेस दलस्य शेरबहादुर देउवा विधस्य पक्षः सर्वोच्च न्यायालये याचिका निवेदनं प्रस्तोष्यति। सानेपावर्तिनी दल केन्द्रीय कार्यालये उपवेशेन विशेष महाधिवेशने निर्वाचितायै समितै आधिकारिकता प्रदानार्थं निर्वाचन आयोगस्य निर्णयस्य विरुद्धे प्रतिवादं कर्तुं निर्णीतमस्तीति नेता डाक्टर प्रकाश शरण महत असूचयत्। निर्वाचनायोगेन हिमालयीय क्षेत्रेषु उच्च हिमालयीय क्षेत्रेषु च मतपत्र प्रभृतीनां सामग्रीणां परिवहनाय विभिन्नः त्रयोदश व्यावसायिक संस्थाः सूचीकृताः वर्तन्ते। आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते आवश्यकानां निर्वाचन सामग्रीणां मतपत्राणाम् अन्यासाम् अत्यावश्यक सामग्रीणां च परिवहनाय कुरियर इति वस्तुनयनानयन संस्थाद्वयं प्रचितमस्ति। आयोगेन गतपौष मासस्य सप्तदश दिवसे प्रकाशितायाः सार्वजनिक सूचनायाः अनुसारेण प्राप्त निवेदनानां निर्धारित शपथस्य वार्षिकरूपेण विहितस्य व्यवसायस्य आधारेण मूल्यांकनं कृत्वा सेवा प्रदायक संस्थाद्वयमेतत् सूचीकृतमस्तीति स्पष्टीकृतं वर्तते। नेकपा एमाले दलेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते प्रत्याशिनः निश्चिताः वर्तन्ते। ललितपुरस्य च्यासलवर्तिने एमाले दलीय केन्द्रीय कार्यालये ह्य उपविष्टेन सचिवालय उपवेशेन कतिचिद् निर्वाचन क्षेत्राणि विना अन्यत्र निर्वाचन क्षेत्राणां कृते दलस्य पक्षतः प्रत्याशिनां नामानि निश्चितानि सन्तीति उपवेशस्य पश्चात् उपमहासचिव लेखराज भट्ट असूचयत्। प्रत्याशिनां निश्चयनाय अवशिष्टानां निर्वाचन क्षेत्राणां कृते प्रत्याशिनां निर्धारणस्य दायित्वम् अध्यक्षाय केपी शर्मा ओलिनै प्रदत्तम् वर्तते। उपमहासचिवस्य भट्टस्य अनुसारेण झापा जनपदस्य पञ्चम निर्वाचन क्षेत्रे अध्यक्षम् ओलिनम् द्वितीय निर्वाचन क्षेत्रे च सभामुखं देवराज घिमिरे इत्यमुं प्रत्याशिनौ निर्धारयितुम् उपवेशेन निर्णीतम् वर्तते। एवमेव उपाध्यक्षः विष्णुप्रसाद पौडेलः पाल्पा जनपदस्य द्वितीय निर्वाचन क्षेत्रात् उपाध्यक्षः गोकर्णविष्टः गुल्मी जनपदस्य द्वितीय निर्वाचन क्षेत्रात् उपाध्यक्षः पृथ्वी सुब्बा गुरुङ लमजुङ जनपदात् लेखराज भट्टः कैलाली जनपदस्य पञ्चम निर्वाचन क्षेत्रात् रघुवीर महासेठ धनुषा जनपदस्य चतुर्थ निर्वाचन क्षेत्राच्च प्रत्याशिनः निर्धारिताः वर्तन्ते। एवमेव सचिवद्वय महेश बस्नेत इत्येवं भक्तपुरस्य द्वितीय निर्वाचन क्षेत्रात् तेरथुम जनपदात् भानुभक्त ढकालञ्च प्रत्याशिनौ निर्धारयितुम् उपवेशेन निर्णीतम् वर्तते। उपवेशेन दलाध्यक्षं केपी शर्मा ओलिनं भावि प्रधानमन्त्रिण रूपेण अग्रे वर्धयितुं निर्णीतमस्ति इति सचिव महेश बस्नेत असूचयत्। प्रतिनिधिसभा सदस्यानां निर्वाचनस्य स्वीकृत कार्यतालिकानुसारेण विधीयमानानां कार्याणां विषये गृहमन्त्रिणः ओमप्रकाश अर्यालस्य निर्वाचनायोगस्य पदाधिकारिणां च मध्ये विमृष्टमस्ति। मन्त्रिणा अर्यालेन कार्यवाहक प्रमुख निर्वाचन आयुक्तेन रामप्रसाद भण्डारिणा सहितै पदाधिकारिभिस्सह ह्य बहादुर भवन स्थिते आयोगस्य कार्यालये विमृष्टमस्ति। विमर्शने आयोगस्य कार्यवाहक प्रमुख निर्वाचन आयुक्त भण्डारी आयोगस्य स्वीकृत कार्यतालिकाया अनुसारेणैव निर्वाचनस्य कार्यं नियमित रूपेण जायमानमस्ति। निर्वाचनस्य पूर्व कार्यं च प्रतिशतम् अशीत्यांकै सम्भूतमस्ति इति असूचयत्। कार्यवाहक प्रमुख निर्वाचन आयुक्त भण्डारी निर्वाचनाचार संहिताया प्रभावकारि क्रियान्वयनं विधातुं सूक्ष्मतया अनुगमनं विधास्यते इति अज्ञापयत्। तदवसरे गृहमन्त्री अर्यालः मन्त्रालयस्य आयोगस्य च मध्ये समन्वयस्य कृते विषयान् प्रचित्य सहकार्यं विधास्यते इति चर्चयन् सुरक्षा व्यवस्थापने सर्वकारस्य पक्षतः पर्याप्ततया पूर्वकार्यं विधीयमानमस्ति इति समस्पष्टयत्। आयोगस्य सचिवः कृष्णबहादुर राउत राष्ट्रियसभा सदस्यानां निर्वाचनस्य मतपत्राणां मुद्रणस्य कार्यं सम्पन्नमस्ति। सम्प्रति मतपत्राणि निर्वाचन सामग्रीश्च सम्बद्धेषु कार्यालयेषु प्रेषणक्रमे सन्ति इति असूचयत्। राष्ट्रियसभायाः एकोनविंशतितमम् अधिवेशनम् अद्य प्रारभते। नया वानेश्वरवर्तिनि अन्तर्राष्ट्रिय सम्मेलन केन्द्रे विद्यमानस्य संसद भवनस्य जेन्जी उपसन्ततेः आन्दोलनस्य क्रमे दग्ध्वाध्वस्ति भवनस्य कारणेन सिंहप्रासादवर्तिनि संघीय संसद सचिवालये अधिवेशनम् संचालयितुं पूर्वकार्यं विहितम् वर्तते। उपवेशः अद्य पूर्वाह्नस्य एकादशवादनाय निर्धारितो वर्तते। अधिवेशनस्य संचालनस्य पूर्वकार्याय अध्यक्षेण नारायण प्रसाद दाहालेन शुक्रवासरे एव कार्यव्यवस्था परामर्श समितेः उपवेशः आहूतः आसीत्। अधिवेशनस्य प्रथम उपवेशे अध्यक्षेण दाहालेन राष्ट्रपतितः अधिवेशनस्य आह्वानाय प्राप्तस्य पत्रस्य श्रावणस्य सम्प्रत्यैव दिवंगतं नेपाली कांग्रेस दलस्य सांसदं प्रति शोक प्रस्तावस्य प्रस्तुतेश्च कार्यसूची निश्चिता वर्तते। पूर्व राष्ट्रपतिः डॉ रामवरण यादवः नेपालस्य संविधानम् उत्कृष्टम् अस्ति इति चर्चयन् अस्य संरक्षणाय बलं ददाति। सम्पादक समाज नेपालस्य संस्थापकाध्यक्षस्य गोविन्द वियोगी इत्यस्य विंशतितमस्य स्मृतिदिवसस्य अवसरे ह्य नुवाकोटजनपदस्य शिवपुरी ग्रामपालिकायाः सप्तम वडा क्षेत्रवर्तिनी सूर्य चौरस्थाने आयोजिते गोविन्द वियोगी पत्रकारिता पुरस्कार वितरण समारोहे पूर्व राष्ट्रपतिः डॉ यादवः द्वासप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य संविधानं समावेशि समानुपातिकं धर्मनिरपेक्षं चास्तीति चर्चयन् उत्कृष्टमस्तीति प्रत्यपादयत्।